इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा. प्रधानमन्त्री नरेन्द्र मोदी अद्य राजस्थान गुजरात राज्ययोः एकदिवसीय यात्रायै प्रस्थास्यति. प्रधानमन्त्री सर्वप्रथमं राजस्थानस्य यात्रां करिष्यति, यत्र असौ अद्य प्रातःकाले जोधपुर विमानपत्तनस्य नूतन टर्मिनल इति भवनस्य उद्घाटनं करिष्यति. अशीत्यधिक चतुश्शत कोटि रूप्यकाणाम् इयं परियोजना वार्षिकं 20 लक्ष यात्रिणः संचालयितुं परिकल्पितमस्ति. असौ जोधपुरे संशोधित उड्डयन योजनायाः शुभारम्भोऽपि विधास्यति. अस्याः योजनायाः उद्देश्यं विमानन आधारित विकासस्य अग्रिमचरणस्य गतिं वर्धयितुमस्ति. एतदनन्तरं श्रीमोदी बालोतरा नगरस्य यात्रायां भविष्यति, यत्र असौ अद्य मध्याह्ने प्रायः 6,000,000,000 रूप्यकाणां विकास परियोजनानां लोकार्पणम् उद्घाटनम् आधारशिलाञ्च स्थापयिष्यति. श्रीमोदी राजस्थान प्रशासनस्य विभिन्न विभागेषु नियुक्तेभ्यः प्रायः 45 युवकेभ्यः नियुक्तिपत्राण्यपि प्रदास्यति. अनन्तरं सायंकाले प्रधानमन्त्री मोदी गुजरातस्य यात्रां करिष्यति. पाकिस्तान देशात् सीमापारस्य भयोत्पादनस्य निरन्तर प्रयोजकत्वस्य प्रतिक्रियारूपेण सिन्धु जलसन्धि स्थगितः अस्ति. गतरात्रौ नवदिल्ल्यां वार्ताहरैः सह वार्तालापं कुर्वन् विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवालः अवदत् यत् सिन्धु जलसन्धि विषये भारतस्य स्थितिः सुसंगता अस्ति. सः अवदत् यत् पाकिस्तानदेशः सीमापारस्य भयोत्पादनस्य समर्थनं विश्वसनीयरूपेण अपरिवर्तनीयरूपेण च त्यक्तव्यम्. तीस्तानद्याः समग्र प्रबन्धन पुनर्स्थापन परियोजनायाः विषये श्रीजायसवालः बांग्लादेशस्य विकास साहाय्यं प्रति भारतस्य दृष्टिः अपि प्रकटितवान्. केन्द्रीय गृहमन्त्री अमित शाहः, कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहान च एल नीनो इत्यस्य कारणेन देशस्य केषुचित् भागेषु सामान्यात् न्यूनवृष्टेः तस्य प्रभावस्य च स्थितिं समीक्षितवन्तौ. श्रीशाहः सभायाम् अवदत् यत् एल नीनो इत्यस्य कारणेन देशस्य केषुचित् भागेषु सामान्यात् न्यूनवृष्टिं सम्भावित अनावृष्टेः स्थितिं च प्रशासनं निरन्तरं निरीक्ष्यमाणमस्ति. अद्यावधि सम्पूर्ण राष्ट्रिय राजधान्याम् 1,02,000 गणना प्रपत्राणि अंगीकृतानि. दिल्ल्याः मुख्य निर्वाचनाधिकारिणः कार्यालयस्य अनुसारं दिल्ल्यां मतदातृ सूच्यां विशेष गहन पुनरीक्षणस्यांशरूपेण प्रायः 14,000+33,00,000 प्रपत्राणि अधुना यावत् वितरितानि सन्ति. सम्प्रति दिल्ल्यां मतदातृ गणना प्रपत्राणां प्रतिगृहं वितरणं प्रचलति. अन्तिम मतदातृ सूची अक्टूबर मासस्य 7 दिनांके प्रसारयिष्यते. पुरुषाणां क्रिकेट प्रतिस्पर्धायां भारत इंग्लैंड देशयोः मध्ये द्वितीया 20-प्रतिविंशति अन्ताराष्ट्रिय स्पर्धा अद्य मैनचेस्टर इत्यत्र भविष्यति. स्पर्धा भारतीय समयानुसारं सायं 7 वादने प्रारप्स्यते. चेस्टर ले स्ट्रीट इत्यत्र वृष्टिकारणात् 5 स्पर्धानां श्रृंखलायाः प्रथमा स्पर्धा निरस्तीकृता आसीत्. तृतीया स्पर्धा जुलाई मासस्य 7 दिनांके नॉटिंघम इत्यत्र क्रीडिष्यते. ब्रिस्टल साउथहैम्पटन इत्येते नगरे 20-प्रतिविंशति अन्ताराष्ट्रिय श्रृंखलायाः अन्तिमयोः द्वयोः स्पर्धयोः आतिथ्यं करिष्यतः, यत् जुलाई मासस्य 11 दिनांके समाप्येते. एतदनन्तरं भारत इंग्लैंड देशौ त्रिस्पर्धानाम् एकदिवसीयाम् अन्ताराष्ट्रिय श्रृंखलां क्रीडिष्यतः. इति वार्ताः.